इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। तालिबानेन प्रत्याक्रमणक्रमे न्यूनातिन्यूनम् अष्टपञ्चाशत् पाकिस्तानी सैनिकाः व्यापादिताः। मुजाहिद इत्यमुना पाकिस्ताने अन्तर्निहितानाम् आतंकवादिनां निष्कासनाय सञ्चेतना प्रदत्ता। प्रधानमन्त्री नरेन्द्र मोदी सेशेल्स देशे संजाते राष्ट्रपति निर्वाचने डॉ पैट्रिक हर्मिनी इत्यस्य कृते विजयाय शुभकामनां प्रदत्तवान्। सः प्रोक्तवान् यत् उभयो देशयो मध्ये बहुपक्षीया सम्बन्धा सुदृढा भविष्यन्ति, गतिं च प्राप्स्यन्ति। कनाडादेशस्य विदेशमन्त्री अनिता आनन्दः अद्य सायंकाले भारतस्य त्रिदिवसीय यात्रार्थं नवदिल्ल्यां सम्प्राप्स्यति। पश्चिम बंगाले दुर्गापुरस्य न्यायालयेन वैद्यकीय महाविद्यालयस्य एमबीबीएस द्वितीय वर्षीय छात्रया सह सामूहिक बलात्कार प्रकरणे त्रयः आरोपिणः अद्य दशदिनानाम् आरक्षक निग्रहे प्रेषिताः। अपि च आईसीसी महिला एकदिवसीय क्रिकेट क्रीडा प्रतिस्पर्धायां भारत ऑस्ट्रेलिया देशयो मध्ये स्पर्धा विशाखापत्तनम नगरे प्रचलति। तालिबानस्य प्रवक्त्रा जबीउल्लाह मुजाहिद इत्यमुना अद्य प्रोक्तं यत् बहरामपुर जनपदे डूरण्डरेखाया समीपस्थे प्रत्याक्रमणक्रमे तालिबानेन न्यूनातिन्यूनम् अष्टपञ्चाशत् पाकिस्तानी सैनिकाः व्यापादिताः, त्रिंशदधिकाश्च व्रणिताः समभवन्। काबुलनगरे एकस्मिन् वार्ताहर सम्मेलने जबीउल्लाह मुजाहिद इत्यमुना पाकिस्तानोपरि आईएसआईएस आतंकवादिभ्य आश्रयप्रदानस्य आरोपः आक्षिप्तः। तेन पाकिस्ताने अन्तर्निहितानाम् आतंकवादिनां निष्कासनाय सञ्चेतितः। तेनोदीरितं यत् अफगानिस्तानस्य पार्श्वे स्वसीम्नां रक्षाया अधिकारः वर्तते। सः प्रावोचत् यत् यः कोऽपि तेषां भूमौ आक्रान्ततां प्रदर्शयिष्यति अथ च तेषां वायुसीमाम् अतिक्रमिष्यति सः तेषां पक्षतः कठोर प्रतिक्रियां सम्मुखीकरिष्यति। मुजाहिद इत्यनेन प्रोक्तं यत् अफगानिस्तान बलेन पाकिस्तान सेनायाः पञ्चविंशति स्थानकानि अधिकृतानि। अफगान तालिबानेन अतिसीम्नि घातक प्रहाराणां दायित्वम् अंगीकृतम्, यस्मिन् अष्टपञ्चाशत् पाकिस्तानी सैनिकाः मृत्युमुपगताः। तेन एतत् कार्याचरणं पक्तिका प्रान्ते एकस्मिन् नागरिक आपणे कथित पाकिस्तानी वायुप्रहारस्य प्रतिशोधः इति उद्घोषितम्। प्रधानमन्त्री नरेन्द्र मोदी सेशेल्स देशे संजाते राष्ट्रपति निर्वाचने डॉ पैट्रिक हर्मिनी इत्यस्य कृते विजयाय शुभकामनां प्रदत्तवान्। एकस्मिन् सामाजिकान्तर्जालीय सन्देश माध्यमेन प्रधानमन्त्री प्रोक्तवान् यत् हिन्द महासागरस्य जलम् उभाभ्यां देशाभ्यां धरोहरम् अस्ति, अथ च द्वयोः देशयोः जनानाम् आकांक्षाम् आवश्यकतां च पोषयति। सः विश्वासं प्रकटितवान् यत् भारत सेशेल्स देशयोः मध्ये बहुपक्षीया सम्बन्धाः राष्ट्रपतेः हर्मिनी इत्यस्य कार्यकालावधौ सुदृढा भविष्यन्ति, सममेव गतिं च प्राप्स्यन्ति। अस्मिन् निर्वाचने हर्मिनीवर्येण 70.25% मतानि प्राप्तानि, अपरतः रामकलावनवर्येण 30.47% मतानि प्राप्तानि। श्रीहर्मिनी संयुक्त सेशेल्स पार्टीति दलस्य प्रतिनिधित्वं करोति। सः 20.2000 पूर्वं चतुर्दशकं यावत् देशस्य नेतृत्वं कृतवान्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना नवाचार निवेश विपण्योपलब्धीनां माध्यमेन कृषकान् सशक्तयितुं तथा च तान् आत्मनिर्भर विकसित भारतस्य प्रमुखवाहकत्वेन निर्मातुं सर्वकारस्य प्रतिबद्धता पुनः प्रतिपादिता। श्रीमोदी गतदिने नवदिल्ल्यां कृषि सम्बद्ध क्षेत्रेष् 42,000 करोड़ रूप्यतो अप्यधिकानां विविधानां परियोजनानां उद्घाटनं शिलान्यासं च विधाय एतदुक्तवान्। अत्रावसरे प्रधानमन्त्रिणा कृषिक्षेत्रस्य द्वयोः प्रमुखयोजनयोः प्रधानमन्त्री धनधान्य कृषियोजना तथा द्विदलमाधृत्य आत्मनिर्भरताभियानस्य च शुभारम्भः कृतः। प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् एते उभेऽपि योजने आत्मनिर्भरतायाः, ग्रामीण सशक्तीकरणस्य, कृषि नवाचारस्य च नूतनयुगारम्भाय निर्मिते वर्तेते।
देश की आत्मनिर्भरता के लिए किसानों के कल्याण के लिए दो महत्वपूर्ण नई योजनाओं की शुरुआत हो रही है। पहली प्रधानमंत्री धन धान्य कृषि योजना और दूसरी दलहन आत्मनिर्भरता मिशन। ये दो योजनाएं भारत के करोड़ों किसानों का भाग्य बदलने का काम करेगी। इन योजनाओं पर भारत सरकार करीब 35,000 करोड़ रुपए से ज्यादा खर्च करने वाली है।
प्रधानमन्त्रिणा नरेन्द्रमोदिना गतदिने नवदिल्लीस्थे स्वकीये आवासे भारते अमेरिकादेशस्य राजदूतरूपेण नियुक्तस्य सर्जियो गुर इत्यस्य स्वागतं कृतम्। सामाजिक सञ्जालीय सन्देशे श्रीमोदिना विश्वास प्रकटितः यत् तस्य कार्यकालः भारत अमेरिकादेशयोः व्यापक वैश्विक रणनीतिक सहभागिताम् इतोऽपि सुदृढीकरिष्यति। विदेशमन्त्रिणा डॉक्टर एस जयशंकरेणापि श्री सर्जियो गोर इत्यमुना सह भारत अमेरिका संबंधानां तथा च अस्य वैश्विक महत्वस्य विषये चर्चा कृता। श्रीगोरेण राष्ट्रीय सुरक्षा परामर्शकेण अजीत डोभालेन सहापि वार्तालापः कृतः। श्रीगोरेण प्रोक्तं यत् अमेरिका भारत देशौ स्वतंत्र हिंद प्रशांत क्षेत्रस्य समेधनार्थं प्रतिबद्धौ स्तः। पश्चिम बंगाले दुर्गापुरस्य न्यायालयेन वैद्यकीय महाविद्यालयस्य एमबीबीएस द्वितीय वर्षीय छात्रया सह सामूहिक बलात्कार प्रकरणे त्रयः आरोपिणः अद्य 10 दिनानां आरक्षक निग्रहे प्रेषिताः। शेख रियाजुद्दीनः अपूबौरी तथा च फिरदौस शेखः इमे त्रयः विजरा ग्रामतः निगृहीताः। कनाडा देशस्य विदेशमन्त्री अनीता आनन्दः अद्य सायंकाले भारतस्य त्रिदिवसीय यात्रार्थं नवदिल्ल्यां सम्प्राप्स्यति। सा श्वः भारतस्य विदेशमन्त्रिणा डॉक्टर एस जयशंकरेण सह परिचर्चां करिष्यति। सममेव वाणिज्योद्योग मन्त्रिणा पीयूष गोयलेन सहापि परिचर्चां करिष्यति। अस्मिन् अवसरे द्वयोः देशयोः मध्ये व्यापार ऊर्जा सुरक्षा चेत्येतेषु विषयेषु परिचर्चा भविष्यति। सा मुंबई नगरमपि गमिष्यति, यत्र सा कनाडा भारतयोः वृत्त्यावसरान् आर्थिक अवसरान् च संवर्धयितुं कार्यं कुर्वद्भिः समवायी जनैः सह परिचर्चां करिष्यति। एनडीए इति राष्ट्रिय जनतांत्रिक संयुति सहयोगी दलानि अद्य बिहार विधानसभा निर्वाचनार्थं आसन विभाजनाय अन्तिमं रूपं दातुं शक्नुवन्ति। भाजपायाः जनतादलस्य लोक जनशक्ति दलस्य हिन्दुस्तानी आवाम मोर्चा इत्यस्य तथैव राष्ट्रिय लोक मोर्चा पक्षस्य च वरिष्ठ नेतारः आसन विभाजनस्य विषयं समाधातुं नवदिल्ली नगरे उपस्थिताः सन्ति। अस्य उपवेशनस्य अनन्तरम् आसन विभाजनस्य घोषणा भवितुम् अर्हति। अतः पूर्वं बिहार भाजपा अध्यक्षेण डॉ दिलीप जायसवालेन उद्घोषितं यत् आसन विभाजनोपरि औपचारिक सन्धि शनिवासरं यावत् भविष्यति। भाजपायाः राष्ट्रीय अध्यक्षेण जेपी नड्डा इत्यमुनापि आसन विभाग विषये दलस्य मूल समिति सदस्यैः सह निरन्तरं विचार विमर्शः कृतः। विपक्षी महागठबन्धनम् अपि आसन विभाग विषये एतादृशस्यैव गतिरोधस्य सम्मुखीकरणं कुर्वदस्ति। कांग्रेस दलमपि मुकेश सहनी इत्यस्य विकासशील इंसान दलस्य अधिकासन याचना प्रस्तावस्य विरोधं कुर्वदस्ति, तथा च उपमुख्यमंत्री पदस्य याचनायामपि आपत्तिं प्रकटीकरोति। अत्रांतरे वामदलैः आसन विभाजने विलम्बनार्थं असंतोषः प्रकटीकृतः। आईसीसी महिला एकदिवसीय क्रिकेट क्रीडा प्रतिस्पर्धायां भारत ऑस्ट्रेलिया देशयो मध्ये स्पर्धा विशाखापत्तनम नगरे प्रचलति। ऑस्ट्रेलिया देशेन पदकं विजित्य स्पर्धायां क्षेत्ररक्षणस्य निर्णयः विहितः। मुख्यवार्ता पुनरेकवारम्। तालिबानेन प्रत्याक्रमणक्रमे न्यूनातिन्यूनम् 58 पाकिस्तानी सैनिकाः व्यापादिताः। मुजाहिद इत्यमुना पाकिस्ताने अन्तर्निहितानाम् आतंकवादिनां निष्कासनाय सञ्चेतना प्रदत्ता। कनाडा देशस्य विदेशमन्त्री अनीता आनन्दः अद्य सायंकाले भारतस्य त्रिदिवसीय यात्रार्थं नवदिल्ल्यां सम्प्राप्स्यति। पश्चिम बंगाले दुर्गापुरस्य न्यायालयेन वैद्यकीय महाविद्यालयस्य एमबीबीएस द्वितीय वर्षीय छात्रया सह सामूहिक बलात्कार प्रकरणे त्रय आरोपिणः अद्य 10 दिनानां आरक्षक निग्रहे प्रेषिताः। अपि च आईसीसी महिला एकदिवसीय क्रिकेट क्रीडा प्रतिस्पर्धायां भारत ऑस्ट्रेलिया देशयोः मध्ये स्पर्धा प्रचलति।